हरिः ओम्।
अगजानन पद्मार्कं गजानन महर्निशम् अनेकदन्तं भक्तानामेकदन्तमुपास्महे श्रीमहागणपतये नमः। गुरवे सर्वलोकानां विषये भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। हरिः ओम्।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अद्यतनकार्यक्रमः अस्ति, तत्र कथाद्वयम् अथवा पश्यामः कां कथां पठितुं शक्नुमः। किन्तु प्रथमे तत्र प्रतिमायां सजीवः देवः इति कथा प्रथमा अस्ति, तां कथां पठामः। तदनन्तरं तत्र अग्रिमे यदि समयः अस्ति चेत् अन्यामपि पठामः। तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा तत्र?
आं महोदय। प्रतिमायां सजीवः देवः। शिवकुमारः आगतेभ्यः विंशतिवर्षेभ्यः देहल्यां कस्मिंचित् कार्यालये लिपिकाररूपेण कार्यं कुर्वन् आसीत्। एतावता अपि कार्ये तेन पदोन्नतिः न प्राप्ता आसीत्। तस्य पत्नी तदीयम् असामर्थ्यम् उपहसति स्म। प्रतिवेशिनः अपि तं हीनभावनया पश्यन्ति स्म। एतस्मात् नितरां जुगुप्सितः सः कदाचित् सहोद्योगिनं कच्चित् उपसर्प्य विषयेऽस्मिन् मार्गदर्शनं प्रार्थितवान्। सः सहोद्योगी अवदत् भवान् विपणिं गत्वा सुन्दरीं काञ्चित् रामप्रतिमाम् आनीय गृहे परिशुद्धे स्थले प्रतिष्ठाप्य पूजां करोतु। श्रीरामस्य पुरतः सदा गन्धवर्तिकां ज्वालयतु। ॐ श्रीरामाय नमः इति भक्त्या जपन्
अष्टाधिकसहस्र
पुष्पाणि तस्मै अर्पयतु। अन्ते कर्पूरं प्रज्वाल्य नीराजनं करोतु। वर्षाभ्यन्तरे श्रीरामः भवन्तम् अभीष्टदानेन अनुग्रहिष्यति इति।
हा, समीचीनं भगिनि, अस्तु। तत्र समीचीनम्। इदानीं तत्र यतोहि तथा दग्वी एव अस्ति, तत्र अस्मिन् परिच्छेदे किम् अस्ति इति किञ्चित् परिशीलयामः, तदनन्तरम् अग्रे सरामः। तर्हि तत्र शोभा भगिनी किञ्चित् विवृणोति वा अत्र अस्मिन् परिच्छेदे किम् अस्ति इति?
आम् महोदय। तत्र शिवकुमारः इति एकः व्यक्तिः अस्ति, सः सः विंशतिवर्षेभ्यः देहल् कस्मिंश्चित् कुत्रापि कार्यं कुर्वन् आसन् अपि लिपिकाररु लिपिकारः सः कार्यं कुर्वन् आसन् अपि तस्य कार्यालये तस्य पदस्य उन्नतिः किमपि उन्नतिः न प्राप्तं तेन
प्राप्ता इति अस्ति
उन्नतिः इति स्त्रीलिङ्गे
विशेषणं नाम पदोन्नतिं पदोन्नतिं सः न प्राप्तवान्
हा पदोन्नतिं न प्राप्तवान् नो चेत् न प्राप्ता इति अस्ति चेत् प्राप्ता इति भवति एतेन कारणेन सः किं तत्र सर्वेषां कृते हास्यदायक हास्य वस्तुः इति वक्तुं शक्नुमः वा महोदय हास्यास्पद इति अपि अस्ति किन्तु तत्र तस्य प्रतिवेशिनः इत्युक्ते प्रतिवासिनः इति
प्रतिवेशिनः नाम ये समीपे निवसन्ति प्रतिवेशिन् नकारान्तपदम्
पर्यायवाचकशब्दः वासि प्रतिवासी इति अपि अस्ति महोदय
प्रायः अस्ति भगिनि
ते तस्य कृते गौरवेण न पश्यन्ति स्म किमर्थ तस्य स्थितिः तादृशम् आसीत् अपि च तस्य एव पत्नी अपि हसति स्म
हसति इति अकर्मकः किन्तु उपहसति इति सकर्मकः अतः तत्र असामर्थ्यम् इति तत्र कर्मपदम्
तस्य असामर्थ्यं दृष्ट्वा उपहसति उपहासं करोति स्म तस्य
तत्र उपहसति इति सकर्मक असामर्थ्यम् इति कर्मपदं तत्र
आम् महोदय अतः सः बहु तत्र किं दत्तम् इत्युक्ते जुगुप्सितः जुगुप्सा इति स्त्रीलिङ्गपदमस्ति किल महोदय
जुगुप्सि मन्ये भगिनि
तेन अतीवतया जुगुप्सा अनुभविता इति वक्तुं शक्नुमः वा महोदय
किं भगिनि
तेन जुगुप्सा अनुभविता इति
न न तत्र जुगुप्सितः तत्र खिन्नः इति
किन्तु जुगुप्सा इति तेन अनु
जुगुप्सितः इति सः जुगुप्सितः इति तत्र तप्रत्यय खलु
आम् यदि पर्यायवाचकवाक्यं करोमि चेत् तादृशं भवितुम् अर्हति वा महोदय तेन जुगुप्सा सः अनुभूतवान् इति अपि जुगुप्सा अनुभूतवान् इति
जुगुप्सा अस्तु तत्र तेन तेन जुगुप्सा अनुभूता
अनुभूता अनुभूता न क्षमताम् अनुभूता तेन जुगुप्सा अनुभूता अतः सः किमपि करणीयम् इति चिन्तयित्वा तस्य सहोद्योगिनः
सहोद्योगी इत्युक्ते तत्र एकवचने किम् अस्ति सहोद्योगिनः इति
सहोद्योगी इति अस्ति
सहोद्योगी
तत्र सहोद्योगिनम् इति द्वितीयविभक्ति कर्मपदं भवति
तत्र यस्य उद्योगः अस्ति सः उद्योगी
सः
प्रत्ययः तत्र गुणि इति गुणिवत् सः अपि तत्र सहोद्योगी तत्र तेन सह उद्योगं करोति इति कृत्वा सहोद्योगी
आं महोदय तत्र कश्चित् उपसर्प्य इति दत्तं तत्र उपसर्प्य इत्युक्ते तत्र
उपसर्पं
गत्वा इति
तत्र कञ्चित् सहोद्योगिनम् इति तत्र कञ्चित् इति प्रायशः तावदेव तत्र कदाचित् तत्र कदाचित् सः कदाचित् तत्र जुगुप्सितः इति तस्य विशेषणमस्ति खलु सः नाम शिवकुमारः जुगुप्सितः शिवकुमारः कदाचित् नाम तत्र कस्मिंश्चित् समये सः सहोद्योगिनं, किन्तु कीदृशं सहोद्योगिनं, तत्र कः सः सहोद्योगी न जानीमः, किन्तु सहोद्योगी, अतः तत्र कञ्चित् सहोद्योगिनम् उपसर्प्य.
तत्र उपसर्प्य इत्युक्ते समीपं गत्वा इति.
हा, समीपं गत्वा.
तत्र सरति इति भवति इति मन्ये, उपसरति इति
तदेव अस्ति, सरति इति एव अस्ति, सत्यं.
विषयेऽस्मिन् मार्गदर्शनं,
अस्मिन् विषये
किं करणीयम् इति सूचयतु इति, मार्गदर्शनं करोतु इति प्रार्थनं कृतवान्.
तत्र समीचीनं भगिनि. अपि तत्र प्रायशः तत्र सहोद्योगिनं कञ्चित् उपसर्प्य विषयेऽस्मिन् मार्गदर्शनं प्रार्थितवान्. तत्र प्रायशः भगिनि तत्र
महोदय सहोद्योगिनं प्रार्थितवान् इति कर्मपदं,
तदपि तत्र उद्योगिनम् उपसर्प्य. समीचीनं भगिनि, तत्र सहोद्योगिनम् उपसर्प्य तस्यापि कर्मपदं भवति. अपि तत्र प्रार्थितवान् इति तत्रापि कर्मपदं भवति, यतोहि प्रार्थयति इति द्विकर्मकधातुः अस्ति.
आम्, अस्मिन् कथायां बहवः द्विकर्मकधातवः सन्ति इति मन्ये.
हा, प्रायशः. अतः तत्र कं प्रार्थितवान्, अपि किं प्रार्थितवान्, सहोद्योगिनं प्रार्थितवान्,
मार्गदर्शनं
प्रार्थितवान्, अपि मार्गदर्शनं कस्मिन् विषये, नाम अस्मिन् विषये तत्र किं करणीयम् इति विषये. अस्तु, अग्रे.
अग्रे तदा सहोद्योगी वदति, सूचयति यत् भवान् विपणिं गमनीयम्, अपि च एका
भवता विपणी
भवता क्षमतां गमनीयम् इति तत्र तृतीया एव भवनीयं, भवता विपणिं गमनीयम्, अपि च विपणिं गमनीयम्.
गमनीयमपि नास्ति खलु, तत्र गमनीया, यतोहि विशेषणं भवति. कार्यं करणीयं, कार्यं करणीयं, ग्रन्थः पठनीयः, नदी द्रष्टव्या इति खलु, तत्र विपणिम्
इति भवति चेत्
विपणिम् इति तत्र कर्मपदं, किन्तु इदानीं भवता इति तत्र कर्मणि प्रयोगे भवता इति तृतीयान्तं, विपणी इति प्रथमान्तं, गन्तव्या यतोहि विपणी इति स्त्रीलिङ्गे अस्ति.
विपणि स्त्रीलिङ्गे, तत्र ह्रस्व इकारः अस्ति, ततः विपणि,
किन्तु तत्र मतिशब्दवत् प्रायशः अस्ति तावत्
एव. अस्तु महोदय, विपणि अस्तु.
हा, विपणी गन्तव्या, तत्र विपणिः, विपणिः प्रायशः अस्ति, मतिः विपणिः,
विपणिः, अतः अस्तु अस्तु. भवता विपणि, तर्हि विपणिः एव भवति वा महोदय? विपणिः,
विपणिः प्रथमविभक्तिरूपं खलु.
भवता विपणिः गन्तव्या, अपि च एकां सुन्दरी, तत्र सुन्दरी एव भवति, सुन्दरी रामप्रतिमां तत्र
क्रेतव्या वदति. तत्र एकमेकं तत्र विपणिं गच्छतु, तदनन्तरं किं करोतु तत्र?
विपणिं गत्वा तत्र एक प्रतिमा इति स्त्रीलिङ्ग, अतः एकां रामप्रतिमां क्रेतव्यं,
पुनः तत्र क्रेतव्या इति एव भवति. प्रतिमा तत्र भवता इति अस्ति चेत्
क्रेतव्या इति,
किन्तु
क्रेतव्या
सुन्दरी, काचित् सुन्दरी रामप्रतिमा क्रेतव्या भवता.
आम्, क्रेतव्या. अपि च गृहे तां प्रतिमां स्थापयित्वा अथवा प्रतिष्ठापनं तस्याः
प्रतिष्ठापनं
कृत्वा पूजां करणीयं,
प्रतिष्ठापनं कृत्वा शुद्धस्थले परिशुद्धे स्थले तत्र विशेषणविशेषभावः
आम् परिशुद्धस्थले तत्र यतोहि अहम् अनियर् प्रत्ययं योजयामि तत्र पूजा करणीया इति एव भवति किल महोदय
पूजा करणीया सत्यं भगिनि
तदनन्तरं कथं करणीयं पूजा इत्युक्ते श्रीरामस्य पुरतः सर्वदा गन्धवर्तिकाम् इत्युक्ते तत्र किं तदेव अस्ति इति मन्ये पर्यायवाचक न जानामि गन्धवर्तिका सर्वदा गन्धवर्तिकां ज्वालयतु अपि च ॐ श्रीरामाय नमः इति मन्त्रं भक्त्या जपन् इत्युक्ते तत्र यदा मन्त्रं मन्त्रोच्चारणं कुर्वन् अस्ति तदा अष्टाधिक एकसहस्र पुष्पाणि तस्मै अर्पयतु पुष्पाणि अर्पयित्वा पूजां करणीयं पूजा करणीया पुनः
तत्र शानज्ञा शत्रुन्तप्रत्ययस्य उपयोगं कृत्वा तत्र सर्वदा गन्धवर्तिका ज्वलन्ती अथवा ज्वलन्ती भवेत् इति किमपि वक्तुं शक्नुमः खलु
आमां ज्वलन्ती ज्वालयन्
एषा ज्वालयति किन्तु सा तु ज्वलति खलु
ज्वलति ज्वलन्ती
तत्र ज्वलन्ती भवेत् सर्वदा
तत्र दीर्घ अन्यत् कारणेन भवति
तादृशं
ज्वलन्ती भवेत् इति वक्तुं शक्नुमः किल महोदय
सत्यं
ज्वलन्ती भवेत् इति अपि च पूजायाम् अष्टाधिकसहस्रपुष्पाणि अपि भवेत् इति अथवा पुष्पाणां समर्पणं भवेत्
इति
समर्पणं करोतु इति अपि च पूजायाः अन्ते कर्पूरं एव उपयुज्य प्रज्वाल्य नीराजनं तत्र राज इति धातु
नाम मङ्गलारतिः इति यत् वदामः
तत्र राजते इति अर्थे भवति तत्र नीराजनं
प्रकाशयतु
नीराजनं करोतु अपि च वर्षाभ्यन्तरे इत्युक्ते वर्षस्य अवध्याः अन्तरे एव इत्युक्ते तस्याधिक
तस्मिन् काले एव तत्र एकवर्षः यावत् अस्ति तस्मात् प्राक् एव
एकस्य वर्षस्य अन्तरे एव काले एव श्रीरामः भवन्तं अभीष्टदानेन इत्युक्ते यत् इष्टं त्वया अथवा भवता तत् ददाति अनुग्रहिष्यति
तत् दास्यति
दत्त्वा अनुग्रहं करोति इति सूचितवान्
समीचीनं भगिनी अस्तु उत्तमं समीचीनं धन्यवादः उमा मीनाक्षी भगिनी नमस्कारः वंशी सुधा भगिनी नमस्कारः करपत्रम् अस्ति भगिनि तत्र कथा अस्ति तत्र अस्ति भगिनि तत्र प्रतिमायां सजीवः देवः इति तत्र
दृष्टवती तस्मात् पठति वा अस्तु
सत्यं भगिनि गीताञ्जलि भगिनी नमस्कारः
नमस्कारः कथा किं लिङ्क् मध्ये प्रेषितं वा
ईमेल् मध्ये अस्ति भगिनि ईमेल् मध्ये एव तत्र अद्यतनवर्गस्य सूचनापत्रम् अस्ति खलु तत्र एव तत्र विशल् रीड् द स्टोरी इति अस्ति भगिनि चाट् मध्ये प्रेषणीयं वा
लिङ्क् प्रेषयति चेत् सुलभं भविष्यति
चाट् मध्ये वा तत्र लिङ्क् तत्र लिङ्क् न अस्तु एकनिमिषं भगिनि अहं दृष्ट्वा वदामि एकनिमिषः ओ अस्तु धन्यवादः गीताञ्जलिभगिनी धन्यवादः अस्तु धन्यवादः अस्तु तर्हि तत्र उमा भगिनी प्राप्तवती इति मन्ये
तदेव आगतं वा भिन्नं भिन्नम् अस्ति
न तदेव तदेव भगिनि यत् कमपि क्लिक् करोतु समानमेव अस्तु तर्हि अग्रेसरम् इदानीं प्रथमपरिच्छेदं कृतवन्तः अग्रे तत्र मधु महोदय द्वितीयपरिच्छेदं पठति वा मधु महोदय नास्ति वा अस्तु तर्हि तत्र अस्तु उषा भगिनी अग्रे पठति वा
आं महोदय शिवकुमारः अनन्तरदिने एव विपणीं गत्वा रामप्रतिमाम् आनीय भक्त्या पूजनम् आरब्धवान् वर्षात् अधिकः कालः अतीतः किन्तु तेन न किमपि फलं प्राप्तम्
हा यावत् पठितवती तस्मिन् विषये किञ्चित् विवृणोतु भगिनी
यदा
सहोद्योगी
रामप्रतिमाम् आपणीं गत्वा रामप्रतिमाम् आनीय शुद्ध परिशुद्धस्थले प्रतिष्ठाप्य पूजां करोतु इति उक्तवान्
एकवर्षात् प्राक् एव तत्र तस्मिन् समये एव
भवान्
भवान् श्रीरामस्य अनुग्रहं प्राप्नोषि प्राप्स्यसि तत्र प्राप्स्यसि
इति उक्तवान् तदेव शिवकुमारः अनन्तरदिने विपणीं गत्वा एकः रामप्रतिमां एकां रामप्रतिमां मूर्तिम् आनीय भक्त्या पूजनं कृतवान् परन्तु वर्षात् अधिकः जातः कालः तथापि किमपि फलं सः न प्राप्तवान्
अतः तत्र राम अनुग्रहं न प्राप्तवान् सः इति अस्ति समीचीनं भगिनि अस्तु अग्रे तत्र अग्रे शुभदा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय पठामि
महोदय क्षमतां
इदानीं पठितुं शक्नोति वा अस्तु शुभदा भगिनी एतत् कुर्मः वा मधु महोदय पठति तदनन्तरं भवती विवृणोति वा किमस्ति
महोदय सम्यक्
धन्यवादः भगिनि अस्तु मधु महोदय इदानीं पठतु असन्तुष्टः सः इति
असन्तुष्टः सः कार्यालये अन्यं
सहोद्योगिनं
स्वस्य समस्यां निवेद्य मार्गदर्शनं प्रार्थितवान् अपरः सहोद्योगी अवदत् श्रीरामः बहु प्राचीनकाले आसीत् अतः सः अप्रस्तुतः श्रीकृष्णः तु अवार्चीनः अस्ति अतः भवान् रामस्य अपसार्य श्रीकृष्णस्य प्रतिमां संस्थाप्य पूजां करोतु अचिरात् एव भवान् सफलः भविष्यति इति शिवकुमारः रामस्य प्रतिमां वातायनस्य पार्श्वे उत्पीठिकायाः उपरि प्रतिष्ठापितवान् आसीत् अधुना सः रामस्य प्रतिमाम् अधः भूमौ संस्थाप्य तस्मिन् स्थाने कृष्णस्य प्रतिमां प्रतिष्ठापितवान्
हा समीचीनं महोदय धन्यवादः अस्तु उत्तमम् इदानीं तत्र शुभदा भगिनी किञ्चित् विवृणोति वा तत्र अस्मिन् परिचये किम् अस्ति इति
आं महोदय प्रयत्नं करोमि असन्तुष्टः सः क्षम्यताम् असन्तुष्टः सः कार्यालये अन्यं सहोद्योगिनं स्वस्य समस्यां निवेद्य मार्गदर्शनं प्रार्थितवान्। शिवकुमारः यः इष्टवान् तत्तु न अभवत्, अतः सः असन्तुष्टः आसीत्, सः दुःखी आसीत्, अतः सः कार्यालये अन्यं सहोद्योगिनम् अन्य कर्मचारी तत्र आसीत्, तस्य मार्गदर्शनं सः प्रार्थितवान्। सः स्वस्य समस्यां तां निवेद्य तस्मात् मार्गदर्शनं मार्गदर्शनस्य प्रार्थनाम् अकरोत्।
तत्र पुनः भगिनि तत्र निवेदयति इति प्रायशः तत्र द्विकर्मक अस्ति खलु,
निवेदयति, आं महोदय।
अतः तत्र अन्यं सहोद्योगिनं स्वस्य समस्यां, तत्र द्वयमपि कर्मपदं निवेद्य इति
कर्मपदद्वयमस्ति, सहोद्योगिनम् अपि च समस्याम् इति
समीचीनम्। अग्रे
अपरः सहोद्योगी अवदत्, श्रीरामः बहु प्राचीनकाले आसीत्। सः अपरः सहोद्योगी सः अवदत् तस्य
अथवा एतत् उक्तवान्, सः एतत् उक्तवान्
एड्वैस् इति किं किं
एतत् सूचितवान्
सः सूचितवान् यत् श्रीरामः तु बहु प्राचीनकाले आसीत्, सः प्राचीनकालस्य देवः, परन्तु अतः इदानीं काले तु सः अप्रस्तुतः। इदानीं काले तु श्रीकृष्णः अर्वाचीनः अस्ति, अर्वाचीनः इत्युक्ते इदानीं कालस्य
तत्र श्रीरामः प्राचीनपुरातनदेवः, श्रीकृष्णः तु नूतनकालदेवः। तत्र अप्रस्तुतः नाम तत्र अद्यतन तत्र तस्य महत्वं नास्ति, तत्र इर्रेलेवेण्ट् इति अर्थे तत्र तत्र तस्य सः प्रायशः अस्माकं समस्यायाः विषये किमपि न कर्तुं शक्नोति इति तादृशः।
अस्तु, श्रीकृष्णः
किं भगिनि
तत्र स्तुत इति अस्ति किल महोदय, यस्य स्तुतिः भवति सः स्तुत, तादृशे प्रस्तुत इति अस्ति इति मन्ये महोदय,
तत्र प्रस्तुतः, किन्तु इदानीं तत्र तस्य स्तुतिः बहु किं भवति, किन्तु एषः अप्रस्तुतः इदानीं काले अप्रस्तुतः, सत्यं भगिनि, तादृशः अर्थः एव भवेत्। धन्यवादः भगिनि।
श्रीकृष्णः तु अर्वाचीनः अस्ति, इदानीं कालस्य देवः अस्ति इति, अतः भवान् रामस्य प्रतिमाम् अपसार्य श्रीकृष्णस्य प्रतिमां संस्थाप्य पूजां करोतु। अतः रामः इति प्राचीनकालस्य देवः, अतः पुरातनदेवः, सः अस्माकं समस्यायाः समाधानं कदाचित् न कर्तुं शक्नोति, अतः श्रीरामस्य अपेक्षया श्रीकृष्णस्य प्रतिमां संस्थाप्य तस्य पूजां करोतु इति सः सूचयति। अपसार्य इत्युक्ते
तत्र अन्यत्र स्थापयित्वा अथवा तत्र सरति नाम मूव् इति खलु, अपसार्य नाम तत्र दूरीकरोतु इति,
दूरीकरोतु।
यस्मिन् स्थाने अस्ति तत्र मास्तु, तत्र ततः अन्यत्र स्थापयतु तम् इति,
सब्स्टिट्यूट् इति तस्य किं शब्दः इति,
तत्र अपसार्य नाम तत्र यस्मिन् स्थाने अस्ति तत्र मास्तु, अन्यस्मिन् स्थाने स्थापयतु इति।
अचिरात् एव भवान् सफलः भविष्यति, यदा यदि भवान् एतत् करोति चेत् अचिरात् झटिति भवान् सफलता प्राप्तुं शक्नोति इति सः सूचयति इति। शिवकुमारः रामस्य प्रतिमां वातायनस्य पार्श्वे उत्पीठिकायाः उपरि प्रतिष्ठापितवान् आसीत्। वातायनस्य पार्श्वे वातायनस्य समीपे तत्र एका उत्पीठिका आसीत् तत्र उत्पीठिकायाः उपरि रामस्य प्रतिमा पूर्वम् एव सः प्रतिष्ठापितवान् आसीत् परन्तु अधुना सः रामस्य प्रतिमाम् अधः भूमौ संस्थाप्य तस्मिन् स्थले कृष्णस्य प्रतिमां प्रतिष्ठापितवान् अधुना सः रामस्य प्रतिमां तत्र तस्मात् स्थलात् निष्कास्य भूमौ संस्थापितवान् अपि च तस्मिन् स्थले रामस्य प्रतिमायाः स्थले कृष्णस्य प्रतिमा अधुना प्रतिष्ठापितवान्
इति समीचीनं भगिनि हा धन्यवादः तदेव अस्ति अस्तु समीचीनम् अस्तु अग्रे तत्र गीताञ्जलि भगिनी पठितुम् इच्छति वा अथवा
पठामि महोदय ततः सः बह्वी धूमवर्तिकाः प्रज्वाल्य पूजाम् आरब्धवान् तेन अवलोकितं यत् वायोः कारणतः धूमवर्तिकानां सुगन्धः भूमौ पतितस्य रामस्य दिशि एव गच्छति न तु कृष्णस्य दिशि इति अनुग्रहम् अकृतवता रामेण सुगन्धसुखम् अनुभूयते इत्येतत् सः सुतरां न असहत्
असहत
क्षम्यताम् सः अन्तः गत्वा कार्पासखण्डं किञ्चित् आनीय रामः यथा सुगन्धं न सेवत सेवेत तथा रामस्य नासापुटयोः अपूरयत्
हा इति समीचीनं भगिनि इदानीं तत्र हा किञ्चित् विवृणोतु तत्र
प्रयत्नं करोमि महोदय ततः सः बह्वी धूमवर्तिका प्रज्वाल्य पूजाम् आरब्धवान्
तत्र धूमवर्तिकाः इति विभक्तिका तत्र
बह्वी धूमवर्तिकाः इति धूमवर्तिकाः इति लघुवाक्यं ततः सः बह्वी धूमवर्तिकाः बह्वी धूमवर्तिकाः तत्र विशेषणविशेष्यभावः बहुवचनरूपम् इति सः तु कर्तृपदम् आरब्धवा सः आसीत् सः बह्वी धूमवर्तिकाः प्रज्वाल्य द्वितीया
किं किं प्रज्वाल्य धूमवर्तिकाः
धूमवर्तिकाः प्रज्वाल्य केचन बह्वीः धूमवर्तिकाः प्रज्वाल्य
समीचीनं आरब्धवान्
पूजाम् आरब्धवान् तेन अवलोकितं यत् वायोः कारणात् सः धूमवर्तिकानां सुगन्धः भूमौ पतितस्य रामस्य दिशि एव गच्छति न तु कृष्णस्य दिशि इति
अतः सः किं दृष्टवान्
सः दृष्टवान् धूमवर्तिकानां सुगन्धः
भूमौ रामप्रतिमा अस्ति उपरि
उपरि कृष्णस्य प्रतिमा अस्ति किन्तु कृष्णस्य प्रतिमां सम्मुखे सः धूमवर्तिकाः प्रज्वाल्य पूजाम् आरब्धवान् आसीत् किन्तु धूमवर्तिकानां सुगन्धः कृष्णस्य दिशि न तु न गच्छति किन्तु रामस्य दिशि इत्युक्ते भूमस्य
नाम तत्र तत्र रामस्य प्रतिमा तत्र पतिता अस्ति नाम तत्र शयनं तत्र तत्र
भूमौ आसीत्
तादृशम् अस्ति
उपरि नासीत् अपि च धूमवर्तिकानां सुगन्धः तु साधारणतया तु उपरि एव गच्छति, किन्तु अत्र किम् अभवत्? विपरीतम् अभवत्, इत्युक्ते रामस्य प्रतिमां प्रति अधो भूमौ गच्छति इति अनुग्रहम् अकृतवता रामेण सुगन्धसुखम् अनुभूयते इत्येतत् सः सुतरां न असहत्
असहत
क्षम्यता.
इदानीं तत्र भागं द्वयं कृत्वा वदतु भगिनि, तत्र इति तदनन्तरं सः सुतरां न असहत, तत्र लकारः कः? असहत
असहत तु लोट् वा?
न
न, ओ लङ् लङ् बहुवचन मध्यमपुरुष
एकवचने एव असहत
एकवचनः एकवचन
नाम सहते, किन्तु सहते इति तस्य लङ्लकारः असहत
आत्मनेपदी चेत्
आत्मनेपदी हा आत्मनेपदी सः सुतरां नाम नितरां, तत्र किञ्चिदपि तत्र तस्य सहनं नास्ति, तत्र एतत् अभवत् इति तत्र तत्र तस्य सहनं नास्ति. किम किमर्थम् एतत् अभवत् इति
न अवगतं,
किन्तु किं किं तत्र सः न सहते, तत्र अनुग्रहम्
अनुग्रहम् अकृतवता रामेण सुगन्धम् अनुभूयते
सुगन्धसुखम् अनुभूयते भगिनि, तत्र अनुभूयते इति तत्र कर्त्री वा कर्मणि वा?
कर्मणि प्रयोग अस्ति, रामेण सुगन्धसुखम् अनुभूयते इति लघुवाक्यम्.
इदानीं तत्र तस्य कर्तृरूपं वदतु.
हा रामः सुगन्धसुखम् अनुभूतवान्
न न अनुभवति
अनुभवति
अथवा तत्र भूयते तत्र अनुभूतवान् अस्तु स तदपि समीचीनं भूतकाले अस्ति, किन्तु अनुभवति इति यतोहि
अनुभवति
सः प्रत्यक्षं पश्यति खलु, यः सः प्रत्यक्षं पश्यति सः पश्यति, तत्र रामः सुगन्धसुखम् अनुभवति इति सः
अनुभवति,
किन्तु तत्र कीदृशरामः तत्र कीदृशरामः
राम अपतत् प्रतिमा
न न न तस्मात् प्राक् पदद्वयमस्ति रामेण इति
अनुग्रहम् अकृतवता
इति तत्र किमस्ति विभक्तिका तत्र अकृतवता विभक्तिका तत्र
अकृतवता इति तृतीया वा
रामेण इति अस्ति खलु रामेण तृतीया
रामेण
इदानीं प्रथमविभक्ति
रामेण कीदृशरामेण अकृतवता रामेण
इदानीं प्रथमविभक्ति कर्तृरूपं वदतु
अकृतवत् रामे रामः
तत्र राम इति प्रातिपदिकम् अकृतवान् रामः अकृतवान्
अकृतवान् पुंलिङ्गं क्षम्यताम् अकृतवान् रामः सुगन्धसुखम् अनुभवति
इति अपि तत्र अकृतवान् नाम किमपि कृतवान् इदानीं सः न कृतवान् इति अर्थे अकृतवान् किं सः न कृतवान् अनुग्रहं न कृतवान् अतः
अनुग्रहं न
कृतवान् रामः सुगन्धसुखम् अनुभवति इति एतत्
इति शिवकुमारः सुतरां न असहत
समीचीनं इदानीं समीचीनम् अस्तु अग्रे
सः अन्तः गत्वा कार्पासखण्डं किञ्चित् आनीय रामः यथा सुगन्धं न सेवेत तथा रामस्य नासापुटयोः अपूरयत् तत्र सः अन्तः गत्वा इत्युक्ते सः तु न असहत शिवकुमारः ततः सः शिवकुमारः अन्तः गत्वा कार्पासखण्डं किञ्चित् आनीय इत्युक्ते कार्पासखण्ड किञ्चित् इत्युक्ते किञ्चित् आनीय लघुखण्डम् आनीय निधातु रामः यथा सुगन्धं न सेवेत
तत्र सेवेत विधिलिङ्गकारः तत्र सः रामः सुगन्धं न सेवेत इति भवेत् इति चिन्तनं तत्र सेवनं रामेण सेवनं मास्तु न स्यात् इति यथा तद् भवतु तथा तादृशं सः किं कृतवान् रामस्य नासापुटयोः
नासापुटयोः अपूरयत
अपूरयत्
अपूरयत्
परस्मैपदी धातु अतः अपूरयत् कार्पासखण्डेन सः किं कृतवान् नासापुटयोः पूरणं कृतवान् यतोहि तत्र नासापुटयोः स्थापितवान् तत्र तदनन्तरं किं भवति रामः इदानीं तत्र सुगन्धसेवनं न कर्तुं
शक्नोति
एतादृशं सः कृतवान् एतावत् सर्वे अवगच्छन्ति खलु कथा अस्तु इदानीम् अग्रे सरामः तर्हि अस्तु अग्रे नरेश महोदय अग्रे पठति वा
आं महोदय अपरस्मिन् एव क्षणे सजीवमूर्तिः हसन्मुखः श्रीरामचन्द्रः शिवकुमारस्य पुरतः प्रत्यक्षः जातः सः शिवकुमारम् उद्दिश्य वत्स वरः याच्यताम् इति अवदत् अत्र शिवकुमारः रामस्य नासापुटयोः कार्पासखण्डम् अपूरयत् तदा
कार्पासखण्डेन नासापुटयोः पूरणं तत्र कार्पासखण्डेन कृतवान्
अस्तु तदा रामस्य मूर्तिः अहसत् अपि च शिवकुमारस्य पुरतः रामः जातः
रामः आगतः प्रत्यक्षः आगतः कीदृशः रामः हसन्मुखः रामः
हसन्मुखः आगतः
सजीवमूर्तिः इदानीं केवलं प्रतिमा नास्ति तत्र साक्षात् रामः एव अत्र अस्ति
सः शिवकुमारम् उद्दिश्य वत्स वरः याच्यताम् इति अवदत्
वरः याच्यताम् इति तत्र लकारः कः
लकारः लोट् लकारः
याच्यताम् इति कर्मणि लोट् खलु
कर्मणि लोट् याच्यता
यज्ञकारः अस्ति भवता वरः याच्यताम् इति सः अवदत् समीचीनं महोदय तत्र अग्रे अपि किञ्चित् पठति वा तत्र
आं महोदय आ गतेभ्यः पञ्चदशभ्यः मासेभ्यः अहं भवतः पूजां कुर्वन् अस्मि शिवकुमारः अवदत् गते पञ्चदश भ्यः मासेभ्यः अहं पूजां कृतवान् किन्तु भवता कदापि दर्शनं न दत्तम्
तत्र आ इत्युक्ते तत आरभ्य तत्र पञ्चदश मासात् पूर्वम् अहम् आरब्धवान् तत्र पूजां कर्तुम् आरब्धवान् किन्तु ततः आरभ्य अद्यपर्यन्तम् अतः तत्र कालं सूचयति तत्र अवधिः तत्र एक देव्याः नाम अस्ति तत्र आब्रह्मकीटजननी इति नाम ब्रह्मात् कीटपर्यन्तं ये जीवाः सन्ति तेषां जननी इति अतः तत्र आब्रह्म तत्र आगतेभ्यः पूर्वमपि तादृशम् आसीत् तत्र आगतेभ्यः विंशतिवर्षेभ्यः देहल्याः इति हा सः एव प्रयोगः अत्रापि
पञ्चदशभ्यः मासेभ्यः अहं पूजां कृतवान् परन्तु भवान् कदापि दर्शनं न दत्तवान्
भवान् कदापि दर्शनं न दत्तवान्
अहं भवतः पूजां परित्यज्य कृष्णस्य पूजने यदा उद्यतः तदा भवता दर्शनं दीयते किम् अहं भवतः पूजा त्यक्तवान्
पूजां त्यक्तवान् हा त्यक्तवान् अपि
त्यक्तवान् अपि च कृष्णस्य पूजा आरब्धवान् तदा भवान् दर्शनं
ददाति किम् ददाति नाम किं नाम तत्र किमर्थं तत्र एतत् किमर्थम् अभवत् हा अतः
असूयावशः सन् दर्शनं किं दीयमानम् अस्ति भवता
हा तत्र
सः
हा तत्र सः न जानाति कारणं किम् अस्ति तत्र किमर्थं रामः पूर्वं दर्शनं न दत्तवान् किन्तु इदानीं दर्शनं दत्तवान् अतः सः किं तत् कारणं
प्रयोजनं किं कारणं किम्
हा कारणमिति किं कारणमिति सः वदति
असूयावशः
हा नाम असूयः असूयः इत्युक्ते तत्र असूयः अन्यस्मिन् अन्यस्य पार्श्वे किमपि अस्ति मम पार्श्वे नास्ति चेत् तत्र किं भवति असूयः भवति खलु
अस्तु अस्तु असूयावशः सन्
तत्र सः चिन्तयति किं रामः असूयवशात् दर्शनं दत्तवान् नाम इदानीं तत्र तस्य भक्तः इदानीं कृष्णभक्तः अभवत् इति किं सः दर्शनं दत्तवान् वा इति सः पृच्छति तत् दीयमानम् इति शानज् प्रत्ययः तत्र अग्रे पश्यामः एतावत् वयं न कृतवन्तः हा दीयमानम् अस्ति भवता भवान् तद् इदानीं दत्तवान् यतोहि भवान् असूयः असूयम् अनुभवति इति वा इति सः पृच्छति शिवकुमारः पृच्छति हा समीचीनम् अग्रे
तत्र उद्यतः अत्र
उद्यतन नाम आरब्धः इति उद्यतः आरब्धः तत्र वश पूजने यदा उद्यतः यद्य आरब्धवान् तत्र तस्मिन् विषये आसक्तिः मम जातः तत् आरब्धवान् तत्र कृष्णस्य पूजाम् अहम् इदानीम् अहम् आरब्धवान् अस्मि इति
भूतकालक्रियापदं किल
उद्यतः तत्र प्रायश तप्रत्ययः एव अस्ति खलु भूतकाल सूचयति इति तत्र पठितः पठितः गतः तप्रत्ययः इति मन्यमहं महोदय समीचीनम् अस्तु अग्रे तत्र हा वंशीसुधा भगिनी पठितुम् इच्छति वा अन्तिमभागः अस्तु नो चेत् उमा मीनाक्षी भगिनी अन्तिमभागः यतस्ति पठितुम् इच्छति वा
तदा भगवान् रामः अवदत् प्रियपुत्र अद्यपर्यन्तम् अहं निर्जीवप्रतिमामात्रम् इति भवता चिन्तितम् आसीत् अद्य मम नासापुटयोः कार्पासखण्डं पूरयता भवता अहम् अपि भवानिव सजीवः प्रज्ञावान् जीवी इति अभिज्ञातम् अतः एव मया दर्शनं दत्तम् इति
पुनः पठित्वा किञ्चित् विवृणोतु भगिनि
ओके
तदा भग रामः स्पष्टीकरणं करोति
सः किमर्थं दर्शनं दत्तवान् तत्र असूयः इति कारणं नास्ति
याव किम् अस्मिन् दिनपर्यन्तं
अद्यपर्यन्तं अद्यपर्यन्तं
अद्यपर्यन्तं शिवकुमारः रामस्य मूर्तिं मूर्ति इति चिन्तयित्वा पूजां कृतवान् परन्तु अद्य सः एवं चिन्तितवान् मूर्ति नास्ति जीवनम् अस्ति तत् तस्मिन् अतः कार्पासखण्डम् आनीय तस्य नासापुटस्य किं
तत्र नासापुट पुटद्वयम् अस्ति तत्र तस्य पुटद्वयं पूरितवान् तत्र कार्पासखण्डेन
तस्य मनसि चिन्ता एवम् अस्ति मूर्ति श्वासं
करोति सजीवमूर्तिः अस्ति सजीवमूर्तिः अस्ति इति सः
सजीवमूर्तिः अस्ति तदा किं रामः प्रसन्नः कदाचित्
प्रसन्नः अभवत् नाम तत्र तत्र यथा अन्तिमवाक्यं किमस्ति अद्य मम नासापुटयोः कार्पासखण्डं पूरयता भवता नाम भवता तृतीया तत्र कर्मणि प्रयोगः भवान् पूरयत् तत्र पूरयन् इति शत्रुन्तप्रत्ययः खलु पूरयता इति अस्ति तत्र पूरयत् इति प्रातिपदिकं पूरयत् भवत् पूरयता भवता तत्र भवान् किं कृतवान् कार्पासखण्डं पूरयन् तत्र नासापुटयोः कार्पासखण्डं पूरयन् भवान् अस्ति भवान् किं चिन्तितवान् अहमपि भवानिव सजीवः प्रज्ञावान् जीवी अस्मि इति भवान् अभिज्ञातवान् इदानीं भवान् ज्ञातवान् तत्र भवतः ज्ञानम् अभवत् एषा प्रतिमा नास्ति किन्तु तत्र जीवः सजीव रामः तत्र अस्ति इति अतः एव अहं दर्शनं दत्तवान् इति समीचीना कथा अस्ति वा
बहु समीचीनम्
आं महोदय
आं महोदय
सुन्दरं महोदय धन्यवादः इत्युक्ते शिवकुमारः सरलः
समीचीनमस्ति तत्र केवलं तत्र दिनद्वयात् प्राक् अहं दृष्टवान् एतां कथां मह्यं बहु रोचते अतः तत्र चिन्तितवान् अस्तु वर्गे पठामः इति अग्रिमा कथापि तादृशमेव समीचीनम् अस्ति तामपि पठामः
अस्तु
समीचीनं भगिनि धन्यवादः भगिनि अस्तु तत्र अग्रे तत्र भेदा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय न आवश्यकं किमपि आसीत् कश्चन वणिक् वणिक् कदाचित् कश्चन ज्योतिषकः तस्य गृहम् आगत्य तदीयां जन्मकुण्डलीं परिशील्य अवदत् भवतः जातके गुरुः उच्चस्थाने अस्ति अतः भवदीयं जीवनं सुखमयं भविष्यति सदापि यदि भवान् प्रतिदिनं साधुसज्जनेभ्यः दीनदुःखिभ्यः च अन्नस्य वितरणं कुर्यात् तर्हि भवत् वंशीया पञ्चमी सन्ततिः अपि सुखेन जीवेत् इति
अस्तु तत्र किञ्चित् विवरणं भगिनि
आसीत् कश्चन एकः वणिकः आसीत् कश्चन वणिकः कश्चन वणिकः आसीत् वणिक् आसीत्
तत्र वणिक् वणिजौ
वणिजौ वणिजः वा इति मन्ये ओके कदाचित् कश्चन ज्योतिषिकः तस्य गृहम् आगत्य तदीयम् एकवारम् एक कश्चन ज्योतिषिकः वणिकस्य गृहम् आगतवान् आगतवान्
वणिकस्य इति न अस्ति
ओ वणिकः न न वणिकस्य न तत् किं किमस्ति तत्र
प्रातिपदिकं वणिज अस्ति अतः तत्र
वणिज वणिज
समीचीनं वणिजः भवत् भवतः वणिज् वणिजः समीचीनं वणिजः गृहम् आगत्य
वणिजः गृहम् आगतवान् पश्चात् तस्य जन्मकुण्डलीम् अपि परिशीलितवान् परिशील्य सः अवदत् किम् अवदत् भवतः जातके गुरुः उच्चस्थाने अस्ति गुरुः इत्युक्ते किं वदाति एक नवग्रहं
नवग्रहेषु नवग्रहेषु अन्यतमः
अन्यतमः गुरुः भवतः जातके गुरुः उच्चस्थाने अस्ति इत्युक्ते गुरुः किं वदामि उच्चस्थाने अस्ति एवम् उक्तम्
एव पर्याप्तं
जातके गुरुः उच्चस्थाने अस्ति अतः भवतीयं जीवनं सुखमयं भविष्यति इति सदापि तदेव तस्य कारणेन
तेन कारणेन
भवतः जीवनं बहु सुखमयं भविष्यति
तत्र सदापि सदापि
भविष्यति
नाम केवलं के तत्र दशवर्षाणि सुखम् अनुभवति तदनन्तरं
सदा
तत्र पूर्णजीवन जीवन जीवपर्यन्तं
जीवनपर्यन्तं
सुखमयमेव जीवनं सुखेन भवान् जीवति
यदि भवान् प्रतिदिनं साधुसज्जनेभ्यः दीनदुःखिभ्यः च अन्नस्य वितरणं कुर्यात् तर्हि भवत् ओके यदि प्रतिदिनं साधुसज्जनेभ्यः अपि च दीनदुःखिभ्यः च अन्नस्य वितरणं करोति चेत्
तत्र लकारः कः
किं महोदय
कुर्यात् इति लकारः कः
कुर्यात् लङ्लकारे
न
कुर्यात् किं
कुर्यात्
ओ विधिलिङ्ग् लकारे
विधिलिङ्ग् समीचीनं विधिलिङ्ग् अपि साधुसज्जनेभ्यः इति तत्र विभक्ति का तत्र
किं महोदय किं तादृश
साधुसज्जनेभ्यः इति विभक्ति विभक्तिका
साधुसज्जनेभ्यः दीन च अन्नस्य वितरणं चतुर्थी विभक्ति
समीचीनं तेभ्यः अन्नस्य वितरणं
अन्नस्य वितरणं यदि करोत् तर्हि
अन्नदानं ददातु
तदेव भवतः वंशीया पञ्चमी सन्ततिः अपि पञ्चमी सन्तति
सन्ततिः इति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् अतः पञ्चमी सन्ततिः अपि तत्र भवत् वंशीया पञ्चमी सन्ततिः भवत् वंशीया सन्ततिः तत्र प्रथमा सन्ततिः पञ्चमी सन्तति पर्यन्तं तावत् पर्यन्तं
सुखेन जीवेत् इति
जीवेत् सन्तति अपि तत्र सन्ततिः एकवचने अस्ति किन्तु सन्ततिः इति पदे अनेके जनाः अन्तर्भूताः सन्ति खलु तत्र सुखेन सन्ततिः नाम एकः जनः इति एव नास्ति खलु तत्र पौत्रः पौत्रस्य
पौत्रः
अनेके अनेके जनाः तत्र सन्ति अतः ते सर्वे तत्र जीवे बहुवचने किम् अस्ति जीवेयुः सुखेन जीवेयुः इति सः ज्योतिषिकः उक्तवान् उक्तवान् समीचीनं भगिनि अस्तु धन्यवादः भगिनि अस्तु अग्रे तत्र मधुमहोदय शक्नोति वा
आं महोदय अधुना पठितुं शक्नोमि
अस्तु अस्तु तत्र एतत् कुर्मः भगिनि तत्र अस्तु भवती एव
महोदय तत्र एकः प्रश्नः तत्र तदीयाम् इति अस्ति खलु तदीयां जन्मकुण्डलीम् इति इत्युक्ते अत्र तु तस्य इति अर्थः परन्तु तदीयाम् इति कथम् आगच्छति व्याकरणः कः
प्रत्ययः प्रत्ययस्य नाम न जानामि भगिनि किन्तु यथा भारतीयः इति अस्ति भारतसम्बद्ध इति भारतीयः अपि भवत् इति तस्य भवदीयः इति वदामः खलु अस्ति तत्र किन्तु तत्र तस्य इति अर्थे अस्ति किन्तु तत्र किञ्चित् भेदः अस्ति तत्र एतत् पूर्वमपि वयं दृष्टवन्तः नाम तस्य इति अस्ति चेत् कर्तृपदम् अनुसरति नाम तस्य जन्मकुण्डली इति वदामः यदि पुरुषस्य जन्मकुण्डली अस्ति चेत् महिल्याः अस्ति चेत् तत्र तस्याः जन्मकुण्डली इति वदामः खलु हा किन्तु अत्र किं भवति तदीया विशेषणं भवति जन्मकुण्डली इति पदस्य नाम कर्म तत्र कर्मपदस्य विशेषणं भवति अतः तत्र वणिजः अस्ति वणिजः जन्मकुण्डली किन्तु वणिजः तदीयां जन्म वदी हा तत्र वणिजः तदीया जन्मकुण्डली इति भवति तत्र तस्य इति अस्ति चेत् सम्बन्धः पुरुषस्य वा पुरुषेण वा महिलया वा भवति किन्तु कर्तृपदं किन्तु तत्र जन्मकुण्डली इति अस्ति तत्र तस्य इति जन्मकुण्डली अपि तस्य खलु वणिजः जन्मकुण्डली वणिजः पुस्तकं वणिजः ग्रन्थः इति सर्वं भवति तस्य इति किन्तु तदीया जन्मकुण्डली तदीयः पुस्तकः तदीयं पुस्तकं तदीयः ग्रन्थः इति भवति
ओ अस्तु अस्तु
हा अत्र किञ्चित् भेदः अस्ति
अस्तु महोदय धन्यवादः
हा समीचीनं भगिनि अस्तु अग्रे पठतु भगिनि वंशीसुधा भगिनि
आं महोदय तत्र भवदीयं जीवनं सुखं यदि भवान् तथा न महोदय अग्रिमपरिच्छेद वा अस्तु महोदय तदनन्तरदिनात् सः वणिक् महता प्रमाणेन अन्नवितरणम् आरब्धवान् तथापि तस्य मनसि चिन्ता मम षष्ठ परम्परायां जातानां का अवस्था भवेत् इति षष्ठपरम्परायां जातानां का अवस्था भवेत् इति अस्तु तत्र वणिक् तदनन्तरदिने वणिक् प्रमाणेन अन्न प्रमाणेन इत्युक्ते किम् अस्ति महता प्रमाणेन इत्युक्ते तत्र प्रमाणम् इत्युक्ते किम् अस्ति महोदय तत्र
साधारणतया प्रमाणं नाम सत्यम् इति भवति प्रमाणम् इति किन्तु अत्र
आन् अ ग्रेट् स्केल् इति
अस्तु धन्यवादः भगिनी
अस्तु
बृहत्
परिमाणेन वा बृहत् परिमाणेन वा अस्तु अस्तु धन्यवादः भगिनी बृहत् परिमाणेन अन्नवितरणं कृतवान् आरब्धवान् परन्तु एतादृश चर्या कुर्यात् अपि तस्य मनसि एकः संशयः आसीत् मम षष्ट्यपरम्परा षष्टपरम्परायाम् इत्युक्ते तत्र पूर्वस्मिन् परम्परा वा षष्टपरम्परायां जातानां
यत् तत्र ज्योतिषिकः किम् उक्तवान् तत्र सन्ततिः पर्यन्तं भवतीया पञ्चमी सन्ततिः अपि सुखेन जीवेत् इति
ओ अस्तु अस्तु अस्तु
इदानीं तत्र षष्टी
षष्टम
षष्टी षष्टि किं कुर्यात्
किं किम् किं भवेत् इति तस्य मनसि शङ्का जाता तस्य मनसि शङ्का जाता यतोहि तत्र
पञ्चमी तत्र पञ्चपरम्परापर्यन्तं सः जानाति तत्र तस्य विश्वासः अस्ति ते सर्वे
सत्यं
सुखेन जीवन्ति
जीवन्ति समीचीनं
तस्य विश्वासः अस्ति किन्तु तदनन्तरं
किं भवति इति समीचीनम् अग्रे अपि पठामि वा महोदय अस्तु तस्य एतां चिन्तां दृष्ट्वा तदीयः आप्तसहायकः अवदत् भवत्समीपे या सम्पत्तिः स्यात् सा पञ्चमपरम्परीयाणाम् अपि सुखाय भवेत् अस्तु अभ्यन्तरे भवत्कुले समर्थः कोऽपि जन्म प्राप्नुयात् तस्य कारणतः भवत्कुलीयाः अग्रे अपि सुखेन तिष्ठेयुः इति किन्तु एतस्मात् अपि वणिजः चिन्ता न अपगता अस्तु तस्य चिन्ता सा दृष्ट्वा स तस्य मित्रः आप्तसहायकः इत्युक्ते मित्रः
सत्यं आप्तः नाम
इति वक्तुं शक्यते आप्तसहायक आप्तः यः कोऽपि
सः यः सत्यं
क्लोस् फ्रेण्ड् क्लोस् हेल्पर्
आप्तः इति तत्र क्लोस् इति किन्तु आप्तः नाम यः सत्यं वदति
ओ अस्तु
सत्यं वदति तत्र नाम तत्र स जानाति यत् सः वदति तत् सत्यमेव अस्ति इति तत्र तादृशः आप्तः यथार्थवाचकः आप्तः
भेदः अस्ति वा महोदय तत्र आप्तः अपि च
केवलं तत्र सुखजनकवाक्यं वदति इति नास्ति
अस्तु आप्तसहायकः उक्तवान् यत् या सम्पत्तिः भवत्याः भवतः पार्श्वे अस्ति भवतः समीपे अस्ति तस्य तस्य कारणेन पञ्चपरम्परयाणाम् अपि सुखेन जीवेयुः इति भवति
सर्वे तत्र परम्परापर्यन्तं
परम्परा सुखेन जीवेयुः
अत्रापि भगिनि तत्र पुनः तत्र तदीयः प्रायशः एषः लेखकः तत्र भानुप्रतापः अस्तु तत्र एषः लेखकः अस्य तदीयः इति प्रियशब्दः अस्ति
प्रियप्रयोगः अस्ति
तदीयम् अदीय आं महोदय
तत्र
छ प्रत्ययः अस्ति परन्तु कीदृशप्रत्ययः इति न जानामि महोदय दृष्ट्वा वदामि तत्र
पञ्चमपरम्परीयाणाम् अपि तत्रापि सः एव
षष्टिविभक्ति
अपि तत्र भवत्कुलीयाः तत्रापि एषः एव प्रत्ययः हा अतः तत्र अनेकवारं प्रत्ययस्य प्रयोगं जातम्
आम् आम् महोदय आम् सुखे सुखाय भवेत् तद् अभ्यन्तरे भवत्कुले समर्थः कोऽपि जन्म प्राप्नुयात् इत्युक्ते सः उक्तवान् तस्मिन् काले इत्युक्ते तद् अभ्यन्तरे
हा पञ्चमपरम्परा या अस्ति तस्य अभ्यन्तरे नाम तस्मात् प्राक् एव तस्मिन् एव तत्र अस्य आरभ्य पञ्चमपरम्परा यथा भवति तस्य अन्तरे तस्मिन् मध्ये एव
भवतः कुले कोऽपि समर्थः जन्म प्राप्नोति इति प्राप्नुयात् इति
तत्र विधिलिङ्ग् किन्तु
विधिलिङ्गकारः
सम्भावनार्थे प्राप्नुयात्
सम्भावनार्थे तस्य कारणतः भवत्कुलीयाः अग्रे अपि सुखेन तिष्ठेयुः तस्य कारणेन भवत्कुलीयाः इत्युक्ते तत्र भवतः कुले ये जन्म प्राप्नुवन्ति ते अपि सुखेन जीवेयुः इति उक्तवान्
अतः तत्र केवलं तत्र पञ्चपरम्परापर्यन्तम् इति न अग्रे सर्वे सुखेन इति सः तत्र समाधानं दातुम् इच्छति
समर्थनं तत्र तस्य भीतिः अपगता
इति चिन्तयित्वा एतत् सर्वं वदति किन्तु किं भवति
एतस्मात् अपि वणिजः चिन्ता न अपगता एतत् श्रुत्वा अपि तस्य मनसि चिन्ता अपि आसीत्
इदानीमपि तिष्ठति चिन्ता तिष्ठति एव
चिन्ता तिष्ठति एव सर्वदा महोदय चिन्तनम् एव चिन्ता अस्ति तत्र यदि चिन्तनं कुर्मः तत्र चिन्ता भवेत् एव चिन्तनं त्यजेम चिन्ता अपगता
हा इति समीचीनं भगिनि
आं महोदय
धन्यवादः अस्तु अग्रे तत्र हा सुजाता भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय कदाचित् अन्नवितरणसमये कश्चन निर्धनः तेन एव मार्गेण गच्छन् दृष्टः वणिजः
किं करोति
अन्नवितरणसमये तस्य तत्समये एव
कस्मिन् समये
कश्चन निर्धनः मार्गेण गच्छन् दृष्टवान्
तत्र भगिनी किञ्चित् तत्र परिवर्तनं करणीयं, यतोहि तत्र वणिजाति कर्मणि प्रयोगः अस्ति. वणि वणि किं दृष्टवान्? निर्धनं निर्धनं मार्गेण गच्छन्तं निर्धनं कञ्चन निर्धनं मार्गेण गच्छन्तं निर्धनं निर्धनं दृष्टवान् सः वणि.
अग्रे सः तं निर्धनम् आहूय अवदत्. सः वणिजः तं निर्धनम्
आहूयति आह्वयति
उक्तवान् अन्नदानं प्रचलति, कृपया अन्नं नीयताम् इति. अन्नदानं प्रचलन् अस्ति, कृपया अन्नं नीयतां अन्नं स्वीकरोतु
इति अस्ति. समीचीनं भगिनि, तत्र कर्मणि प्रयोगः अस्ति. भवता अन्नं नीयतां नाम भवान् अन्नं कृपया नयतु नयतु इति. समीचीनं भगिनि, हा अस्तु. अग्रे तत्र तदा सः निर्धनः किम् उक्तवान्?
तदा सः निर्धनः अवदत्, आर्य मध्याह्नाय यावत् आवश्यकं तावत् मया प्राप्तम् अस्ति, अतः निर्धनः निर्धनः
उक्तवान्
आर्य मध्याह्नपर्यन्तं यावत्
तत्र मम आवश्यकता यत् या अस्ति
तत् मया प्राप्तं
हा तावत् तत्र या आवश्यकता अस्ति तस्याः कृते यत् आवश्यकं तत्र तत् तावत् अहं प्राप्तवान्
प्राप्तवान् अतः इदानीं दानं स्वीकर्तुं न इच्छामि अहम्. इदानीं दानं न स्वीकरोमि
न स्वीकरो न इच्छामि तत्र मम इच्छा नास्ति तत्र इति दानं मम दानं न इच्छामि इदानीं स्वीकर्तुम् इच्छामि. समीचीनं भगिनि, धन्यवादः.
धन्यवादः महोदय.
हा समीचीनम् अस्ति भगिनि. अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आं महोदय.
मधु महोदय प्रश्नः अस्ति वा? प्रश्नः अस्ति वा?
न महोदय.
अस्तु तत्र अग्रे उषा भगिनी पठति, अनन्तरं भवान् अपि पठतु महोदय. अस्तु उषा भगिनी पठतु.
सायङ्कालस्य निमित्तं नीयताम्. सायङ्कालनिमित्तम् अपि कुतश्चित् किमपि प्राप्तं स्यात्. गृहं गत्वा विचार्य प्रत्यागत्य तद्विषये वदिष्यामि इति उक्त्वा गृहं गत्वा प्रत्यागत्य सः अवदत्, सायङ्कालनिमित्तं गृहे तण्डुलादिकम् अस्ति, अतः मह्यं किमपि न आवश्यकम्.
वदतु भगिनि.
आं महोदय. निर्धनः वदति सायङ्कालस्य निमित्तं नीयताम् इति.
मणिक्
वदति सायङ्कालस्य निमित्तम् अन्नं प्राप्नोतु इति. वणिक् वदति, परन्तु निर्धनः सायङ्कालनिमित्तम् अपि कुतश्चित् किमपि प्राप्तं, मया तु सायङ्कालभोजनमपि मम पार्श्वे अस्ति इति उक्त्वा इति
उक्तवान्. प्राप्तं स्यात् प्रायशः तत्र तस्य आवश्यकता मम तस्य आवश्यकता नास्ति इति मन्ये, किन्तु किं करोमि अहम्?
अहं गृहं गत्वा विचार्य
विचारणं कृत्वा तत्र आवश्यकता अस्ति न वा इति
विचारणं कृत्वा अहं प्रति आगच्छामि, अपि च तद्विषये वदिष्यामि इति.
भवन्तं वदिष्यामि तत्र आवश्यकता अस्ति न वा इति वदिष्यामि इति सः उक्तवान्. समीचीनं भगिनि. अग्रे
अपि च अनन्तरं गृहं गतवान् गत्वा प्रति आगत्य सः अवदत् वणिजम् अवदत् सायङ्कालनिमित्तं गृहे तण्डुलादिकम् अस्ति गृहे पाकं गृहे सायङ्कालनिमित्तम् अस्ति अतः मह्यं किमपि न आवश्यकम् अपि किमपि आवश्यकम् अस्ति इति सः उक्तवान्
हा तत्र आवश्यकता मह्यं
न
मम कृते किमपि आवश्यकता नास्ति नास्ति इति सः उक्तवान् समीचीनं भगिनि हा समीचीनम् उत्तमम् अस्तु अग्रे तत्र शुभ मधु महोदय अग्रे पठति वा
महोदय भवादृशः विरलः लोके अतः सेवकद्वारा तण्डुलधान्यादिकं भवद्गृहं प्रति प्रेषयिष्यामि कानिचन दिनानि निश्चिन्तता भवतु भवतः गृहे वणिक् अवदत्
एतावता एतावता वदतु महोदय किञ्चित् वदति वा
भवादृशा इत्युक्ते
सदृशः भवतः सदृशः लैक् यु तादृशः इति अस्ति खलु तादृश भवतः सदृशः भवादृशः
भवादृशः सः विरलः
लोके भवादृशः जनः विरलः विरलः अस्ति लोके
अस्ति अतः सेवकद्वारा तण्डुला धान्यादिकं भवद्गृहं प्रति प्रेषयिष्यामि अतः तदेव सेवकरूपेण अहं प्रेषयिष्यामि तण्डुलं
धान्यम् इत्यादिकम् अहं भवतः गृहं प्रति प्रेषयिष्यामि
कानिचन दिनानि निश्चिन्त कानिचन दिने निश्चिन्तः भवतु सम्यक्
भवतः गृहे तत्र चिन्तनं विना भवतु भवतः गृहे नाम तत्र भवतः गृहे चिन्ता न भवति कानिचन दिनानि यावत् सन्ति तावत् भवतः गृहे चिन्ता न भवति तत्र खादितुं किमपि अस्ति न वा इति तादृशं चिन्तनं न भवति अतः भवान् तत्र भवतः गृहे सुखम् इति चिन्ता न भवति इति वणिक् अवदत् समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र शोभा भगिनी अग्रे पठति वा
आं महोदय दयाघन अद्यतनस्य आहारस्य व्यवस्था भगवता कल्पिता अस्ति श्वस्तनस्य अपि आहारस्य व्यवस्थां सः एव कल्पयिष्यति तावत् वदामि महोदय दयाघन इत्युक्ते दयायुक्तः इति अर्थे भवति तत्र महोदय दयाघन इत्युक्ते यस्मिन् बहु दया अस्ति इति
घन घन सत्यं सत्यं घन इत्युक्ते
दयालुः इति तत्र सम्बोधन दयाघन इति दयाघनः इति प्रथमविभक्ति भवति तर्हि सः वदति निर्धनः अद्यतनस्य आहारस्य अस्माकं कृते अद्यतनस्य आहारं तु भगवता एव आयाति भगवान् एव तत्र भगवान् एव कल्पनं कृत्वा प्रेषयति इति अर्थे भवति भगवान् एव व्यवस्था करोति
व्यवस्थां करोति व्यवस्थापयति
व्यवस्थां करोति क्षमताम् अपि च तथा एव श्वस्तनस्य अपि सः एव व्यवस्थां करोति प्रतिदिनं सः एव व्यवस्थां करोति अस्माकं भोजनस्य अतः अहम् अधुना न स्वीकरोमि यत् भवान् दातुम् इच्छति किमर्थं चेत् किं तत्र भगवतः विरुद्धं गन्तुं न इच्छामि इति, भगवतः इच्छायाः विरुद्धं गन्तुं न इच्छामि, अपि च अधिकस्य परिग्रहः पापाय, यावत् आवश्यकं तावत् नेतव्यं सङ्ग्रहणीयं, तस्य अधिकं पापाय भवति.
हा, पापाय कल्पते, नाम तत्र तेन पापः भवति एव.
हा, तत्र चतुर्थी विभक्ति महोदय, तत्र कुत्रापि उपयोगं कर्तुं शक्नुमः अधिक
पापार्थं, पापार्थम् इति तत्र किमर्थं पापार्थं भवति,
नियमः किमपि नास्ति तत्र किल महोदय, केवलं
हा नियमः नास्ति तत्र किमर्थम् इति स्थाने तत्र अधिकस्य परिग्रहेण किं भवति, पापं भवति इति, तत्र यत् परिण तत्र यत् इफेक्ट्, हा तत्र कार्यं यत् भवति तस्य वदनार्थं तत्र चतुर्थी इति भवति. हा, परिग्रहेण पापः पापम् अथवा पापः भवति इति, अतः तत्र अधिकस्य परिग्रहः पापाय भवति इति वदामः.
अन्येभ्यः दरिद्रेभ्यः दीयताम् अन्नादिकम् इति, तत्र अन्येभ्यः दरिद्रेभ्यः इति दीयताम् अन्नादिकम्,
तत्र दीयताम् इति तत्र लोट्लकारः कर्मणि भवता दीयताम्,
भवता दीयताम् तत्र चतुर्थी एव भवति किल महोदय.
अतः
अस्ति दीयताम् इति कर्मणि प्रयोगः, अतः तत्र अन्येभ्यः दरिद्रेभ्यः चतुर्थी भवति. अन्नादिकम् इत्युक्ते अन्नम् अपि च अन्यानि
तत्र तण्डुलं धान्यं सर्वं
व्यञ्जनानि यदपि खादनीयं खादनीयानि
तत्सर्वं दीयताम्
अन्येभ्यः ददातु
इति सः
उक्त्वा सः निर्धनः ततः निर्गतः भवति
समीचीनं.
एषः पठामि वा अग्रे?
अस्तु, तत्र पश्यामः, तत्र प्रायशः तत्र अस्तु, भवती एव पूरयतु भगिनि. अस्तु, करोतु करोतु. हा हा, तत्र प्रायशः निमिषत्रयमेव अस्ति. हा, निमिषत्रयमेव अस्ति, वदतु भगिनि. हा,
एषः श्वस्तनव्यवस्थाविषयम् अपि न चिन्तयति. अहं तु षष्ठपरम्परीयाणां विषये चिन्तयन् अस्मि. धिक् मां, धिक् मम अज्ञानम् इति स्वगतं वदन् सः वणिक् चिन्ताकरणं परित्यक्तवान्. तस्य मुखे शान्तिः स्थिरा जाता. तदा वणिजं ज्ञानोदयः भवति यत् वणिजः ज्ञानोदयः भवति यत् एषः निर्धनः तस्य विश्वासः भगवति यावत्पर्यन्तम् अस्ति, मम तु नास्ति. तत्र पञ्चपरम्परीयाणां यावत् मम कुलीयाः सुखेन भवन्ति इति ज्ञात्वा अपि अहं चिन्तां करोमि. किन्तु सः श्वः किं भवति इति अपि चिन्तां न करोति इति चिन्तयित्वा सः स्वस्य कृते धिक्कारं करोति. स्वस्य अज्ञानस्य कृते सः लज्जितः भवति, धिक्कारं करोति स्वीयम्, अपि च इति उक्त्वा अथवा चिन्तयित्वा सः
स्वगतं वदन् नाम तत्र
स्वगतं वदन् इत्युक्ते
अन्ते एव तत्र स्वस्य कृते एव वदति, तत्र बहिः न वदति.
वदन् सः चिन्ताकरणं परित्यक्तवान्. यथा अथवा किम् अस्ति तत्र
न या चिन्ता पूर्वम् आसीत् तां चिन्तां
अपगच्छति.
सा चिन्ता अपगच्छति
अथवा वदन् स्वगतं स्वस्य कृते उक्त्वा अथवा वदन् चिन्ताकरणम् इति चिन्तां करणम् इति चिन्तायाः करणम् इति मन्ये तत्र महोदय चिन्ताकरणं त्यजति तदनन्तरं सः शान्तः भवति
शान्तिः स्थिरा जाता शान्तिः
शान्तिः
सर्वदा सर्वदा आसीत् तस्य तस्य मुखे
स्थिरापि जाता अधुना
नाम तत्र सर्वदा अस्ति शान्तिः शान्तिमुखः तत्र शान्तमुखः सः जातः
परन्तु महोदय तत्र द्वौ अपि विचारौ न साधु खलु परिग्रहः अपि न साधु श्वस्तनस्य चिन्ता न करणीयमपि न साधु
इति अपि अस्ति भगिनि हा तत्र किन्तु तत्र किम् अस्ति तत्र हा भगवतः भगवती अस्माकं विश्वासः कथम् अस्ति इति तत्र हा खलु
परन्तु एतत् एषः वणिकः तु भगवतः रूपेण आगच्छति चेत् किं भवति
तदपि
वणिक् एव भगवतः रूपः अस्ति चेत् रूपम् अस्ति चेत् किं भवति
हा न जानीमः खलु सत्यं
भगवान्
एव तं प्रेषितवान्
एतत् एषा योजना तु भगवतः एव अस्ति
सत्यं सत्यं किन्तु तस्य चिन्ता अपगच्छ खलु
उत्तममेव
अस्तु तर्हि समीचीनम् अस्ति इदानीं तत्र अस्तु तत्र हा वंशीसुधा भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
आं महोदय शं नो मित्रः संवरुणः शं नो भवद्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो रुरुक्रमः नमो भगवते न मे वायो तदेवम् ॐ शान्ति शान्ति शान्तिः ॐ हरिः ॐ गुरुभ्यो नमः धन्यवादः